अथ एकविंशः पाठः द्वितीयः खण्डः। कस्मिंश्चिन्नगरे कश्चित् स्वभावकृपणो नाम ब्राह्मणः प्रतिवसति स्म। तस्य भिक्ष्यार्जितैः सत्तुभिर्भुक्तोर्वरितैर्घटः परिपूरितः। तं च घटं नागदन्ते अवलम्ब्य तस्याधस्तात् खट्वां निधाय सततमेकदृष्ट्या तमवलोकयति। अथ कदाचिद् रात्रौ सुप्तश्चिन्तयामास यत् परिपूर्णोऽयम् घटस्तावत् सत्तुभिर्वर्तते तद् यदि दुर्भिक्ष्यम् भवति तदनेन रूपकाणाम् शतम् उत्पद्यते। तस्तेन मया जाद्वयम् ग्रहीतव्यम्। ततः षण्मासिकप्रसववशात्ताभ्याम् यूथम् भविष्यति। ततोजाभिः प्रभूता गा ग्रहीष्यामि गोभिर्महिषीर्महिषीभिर्वडवाः वडवप्रसवतः प्रभूता अश्वा भविष्यन्ति। तेषाम् विक्रयात् प्रभूतं सुवर्णं भविष्यति। सुवर्णेन चतुःशालं गृहं सम्पद्यते। ततः कश्चित् ब्राह्मणो मम गृहमागत्य प्राप्तवयस्कां रूपाढ्यां कन्यां दास्यति। तत्सकाशात् पुत्रो भविष्यति। तस्याहं सोमशर्मेति नाम करिष्यामि। तत्तस्मिन् जानुचलनयोग्ये सञ्जातेऽहं पुस्तकं गृहीत्वाश्वशालायाः पृष्ठदेश उपविष्टस्तदवधारयिष्यामि। अत्रान्तरे सोमशर्मा मां दृष्ट्वा जननीत्सङ्गात् जानुप्रचलनपरो अश्वखुरासन्नवर्ती मत्समीपमागमिष्यति। ततोऽहं ब्राह्मणिं कोपाविष्टोऽभिधास्यामि गृहाण तावद् बालकम्। सापि गृहकर्मव्यग्रतया स्मद्वचनं न श्रोष्यति। ततोऽहं समुत्थाय तां पादप्रहारेण ताडयिष्यामि। एवं तेन ध्यानस्थितेन तथैव पादप्रहारो दत्तो यथा स घटो भग्नः। सत्तुभिः पण्डुरतां गतः।